Welcome to the weekly Krishna Consciousness Radio program. This is Krishna Kanta Devi Dasi. Please note, Shishirada Giridhari Temple is closed until further notice. This week we will start with the Gita Jayanti program with chapters 1 and 2 recited by Shirada Radhika Devi Dasi. Hare Krishna.
Hare Krishna. Reading from Bhagavad Gita Asatis, chapter 1. Observing the armies on the battlefield of Kurukshetra.
Dhritarashtra uvacha dharma kshetre kurukshetre samaveta yuyutsavah mamaka pandavaschaiva kim akurvata sanjaya. Sanjaya uvacha drishtva tu pandavanikam yudam duryodhanastada acharyam upasangamya raja vachanamabravi pashyaitam panduputranam acharya महतीं च भूडां द्रुपदपुत्रेण तव शिष्येन धीमता अत्र सूरमहेश्वास भीमार्जुना समायुधि दुर्योधनो विराटश्च द्रुपदश्च महारथः दृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजित् कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रुपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टाये तानि बोधद्विजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिं जयः अश्वत्थामाविकर्णश्च सौमदत्तिस्ततैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशास्त्रप्रहरणाः सर्वयुद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्मादिरक्षितं पर्याप्तं त्वरिदमेतेषां बलं भीमाविरक्षितम् ayaneshu cha sarveshu yata bhagam avasthitah bhishmam eva virakshantu bhavantah sarvaeva tasya sanjanayan harsham kuru vriddhah pitamahah सिंहनादं विनद्योचै शंखं दद्म प्रतापवान् तथा शंकाश्च बेर्यश्च पनवानक गौमुकाः सहसैवाभ्यहन्त्यन्त सशब्दस्तु मुदोभवत् ततः श्वेतैर्हयैर्युक्ते महती स्यन्दने स्थितौ माधवाः पाण्डवश्चैव दिव्यौ शङ्कौ प्रदात्मतः पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं दद्म महाशङ्कं धीमकर्मा वृकोदरः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषमणिपुष्पकौ काश्य परमेश्वासः शिखण्डी च महारथः दृष्टद्युम्नो विराटश्च सात्यकिश्च पराजितः द्रुपदो द्रौपदेयाश्च सर्वस्सह पृथिवीपते सौभद्रश्च महाबाहु शङ्कान् दद्मो पृथक् पृथक् सघोषोदात्तराष्ट्राणां हृदयानि व्यदारयत् नभश्च पृथिवीं चैव तुमुलोभ्यानुनादयन् अत व्यवसितान् दृष्ट्वा दातराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ऋषिकेशं तदा वाक्यम् इदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रतं स्थापय मे अच्युत यावदेता निरीक्षेऽहं यो दुःखामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः दातराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षवः सञ्जय उवाच एवम् उक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोण प्रमुखतः सर्वेषां च महीक्षिताम् उवाच पात पश्यैतां समवेतान् कुरूमिति पश्यास्तितान् पार्थः पितृन् अतः पितामहः सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्तुतान् कृपया परया विष्टो विषीदन् इदमब्रवीत्। अर्जुन उवाच दृष्ट्वे मम स्वजनं कृष्ण युयुत्सं समुपस्थितं सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपतुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं श्रंशते हस्तात् त्वक्चैव परिदह्यते। न च शाक्नोम्यवस्थातुं भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च। किं नो राजेन गोविन्द किं भोगैर्जीवितेन वा येषाम् अर्थे काङ्क्षितं नो राज्यं भोगासुखानि च। त इमे व्यस्तिता युद्धे प्राणां त्यक्त्वा ददानि च आचार्यः पित्रः पुत्रास्तत्रैवश्च पितामहः मातुला स्वशुरा पौत्राः श्याला सम्बन्धिनस्तथा एतान् हन्तुमिच्छामि नतोऽपि मधुसूदन। अपि त्रैलोक्यराजस्य हेतो किं नो महीकृते निहत्य दातराष्ट्रान्नः का पित्रीस्य जनार्दन। पापमेवाश्रयेदस्मान् हत्वैतान् आततायिनः तस्मान्नार्हा वयं हन्तुं दातराष्ट्रां स बान्धवान् स्वजनं हि कथं हत्वा सुखी न श्याममादव। यदप्येते न पश्यन्ति लोभोपहटचेतसः लक्षये कृतं दोषं मित्रद्रोहे च पातकम्। कथं नायेनमस्मादिः पापादस्मान्निवर्तितुं कुलक्षये कृतं दोषं प्रपश्याद्भिर्जनार्दन। कुलक्षये प्रणश्यन्ति कुलधर्मा सनातनाः धर्मे नष्टे कुलं कृत्स्नम् अधर्मोऽभिभवाच्युत। अधर्माभिभवा कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टा सुवाष्णेय जायते वर्णशङ्कर। शङ्करो नरकायैव कुलज्ञानं कुल Tasya cha Patananti Pitru Yesham Lupta Pindo Dakakriyaha Doshair Etai Kula Nanam Varna Shankara Karakaihi Utsadhyante Jati Dharmaha Kula Dharmascha Shashvataha Utsanna Kula Dharmanam Manushyanam Janarjana Narake Niyatam Vaso Bhavatityanu Shushruma Aho Bata Mahat Papam Kartum Vyavasita Vayam Yadrajya Sukalobhena Hantum Svajana Mudyataha Yadi Mama Pratikaram Ashastram Shastrapanayaha Dhatarashtrarane Hanyus Tanme Kshemataram Bhave Sanjaya Uvacha Evam Uktva Arjuna Sankhe Ratopasta Upavishat Visijra Sasharam Chapam Shokasam Vignamanasah Hare Krishna Hare Krishna 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 Hare 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 Rama Hare Rama 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 Hare Hare Now reading from Bhagavad Gita as it is Chapter 2 Contents of the Gita Summarized Sanjaya Uvacha Tata Kripaya Vishtam Ashru Purna Kulekshanam Visidantam Idam Vakyam Uvacha Madhusudana Shri Bhagavan Uvacha Kutastva Kashmalanidam Vishame Samupasthitam Anaryajushtam Asvaryam Akirti Karamarjuna Klaibhyam Masmagama Pata Naitatvai Upapadyate Shudram Hudayadaurbalyam Tyaktvo Tishta Parantapa Arjuna Uvacha Katam Bhishmam Aham Shankhye Dronam Cha Madhusudana Ishvihi Pratiyotsyami Pujarha Varisudana Guru Nahatva Himaha Halokhe Hatvartha Kamaamstu Guru Nihaiva Bunjiya Bhogan Rudira Pragidam Nachaita Dvidma Kataranagariyo Yadva Jayema Yadivano Jayeyo Yaneva Hatva Shamas Devastita Pramukhe Dhatarashtraha Karpanya Dosho Pahata Svabhavaha Richamitvam Dharma Sammuda Chetaha Yachreyashyan Nishchitam Bruhitanme Shishyaste Hamsadimam Tvam Prapa
नाहि प्रपश्यामि ममापनुद्यात् यच्चोकमुच्चोषणमिन्द्रियाणाम् अवाप्य भूमौ वसत्पन्तरिद्धम् राजं सुराणाम् अपि चाधिपत्यम् सञ्जय उवाच एवम् उक्त्वा ऋषिकेशम् गुडाकेशः परन्तपः नायोत्स्य इति गोविन्दम् उक्त्वा तुष्णीं बभूवः तम् उवाच ऋषिकेशः प्रहसन् इव भारत सेनयोरुभयोर्मध्ये विषीदन्तम् इदं वचः श्रीभगवानुवाच अशोच्यान् अन्वशोचस्त्वं प्रज्ञा वादांश्च भाषसे गतासून गतासूंश्च नानुशोचन्ति पण्डिताः न त्वेऽहं जातु नासं न त्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन् यता देहे कौमारं यौवनं जरा तता देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिनो नित्यास्तांस्ति तिक्षस्व भारत यं हि न व्यतयन्त्येते पुरुषं पुरुषर्षभः समदुःखसुखं धीरम् सोमृतत्वाय कल्पते नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तस्त्वनन्योस्तत्त्वदर्शिभिः अविनाशी तु तद्विद्धि येन सर्वम् इदं ततम् विनाशम् अव्ययस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्त इमे देहा नित्यस्योक्ता शरीरिणः अनाशीनो प्रमेयस्य तस्माद्विद्यस्व भारत य एनं वेटिहन्तारं यश्चैनं मन्यते हतम् उभावतौ न विजानीतो नायं हन्ति न हन्यते न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः अजो नित्य शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदा विनाशिनं नित्यं य एनम् अजमव्ययम् कथं स पुरुषः पार्थ कं घाटयति हन्तिकम् दासांसि जीर्णानि यथा विहाय न वा न
gṛhṇāti naro aparāṇi tatā sharīrāṇi vihāya jīrṇāni anyāni samyāti navāni dehi nainam chindanti śastrāṇi nainam dahati pāvakah चैनं क्लेदयन्त्यापो न शोष्यति मारुतः
हरे कृष्णा हरे कृष्णा 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 हरे हरे
Krishna, 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 Krishna.